अयि भिरग्ने तु भोगिरो विश्वे भिः सोमपीतये देवे भिर्जाहि यक्षि च आत्वा कण्वा अहोषत गृणन्ति विप्रतेधिजाः देवेभिरग्न आगहि इन्द्रभाजो बृहस्पतिम् मित्राग्निम् भूषणम् भगम् आदित्यान्मारुतम् गणम् प्रवो बृजन्त इन्दवो मत्सरामादयिष्णवाः द्रप्सा मध्वश्च भूषदाः ईळते त्वमभस्य भः कण्वासो भृक्तबर्हिषः हविष्मन्तो अरङ्कृताः घृतपृष्ठमनोजुजो ये त्वावहन्ति वह्नजः आदेवान् सोमपीतये तान् यजत्राङ्ग्रता वृधाग्ने पत्नी वतस्कृधि मध्वस्वरिह्वपायज ये जत्राय ईड्यास्ते ते पिबन्धुजिह्वजा मधोरग्ने वषट्कृते आकीं सूर्यस्य रोचनाद्विश्वान् देवाङ्कुशर्बुधाः विप्रोहोते हवक्षते विश्वेभिः सौम्यम् मध्वग्न इन्द्रेण भाजुना पिबा मित्रस्य धामभिः त्वम् होता मनुरहिताग्ने यज्ञेषु सेदसे सेवन्नो अध्वरं यज युक्ष्वाह्यरुषेरथे हरितो देवरोहिताः ताभिर्देवाङ्किहावः